नमस्सर्वेभ्यः अद्य शिक्षावर्गस्य द्वाविंशः पाठः नवम्बर् मासस्य अष्टादशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो ह्यः वयं शतृप्रत्ययान्तस्य भिन्नविभक्तिरूपाणि पुल्लिङ्गे सर्वासु विभक्तिषु कथं रूपाणि भवन्ति तेषां वाक्येषु विशेषणतया कथं प्रयोगः भवति इति ज्ञातवन्तः सुभाषितद्वयमपि अधीतवन्तः करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्यावाणी विजयी भुजयोर्वीर्यमतुलं हृदि स्वच्छावृत्तिः श्रुतमधिगतं च श्रवणयोः विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् वस्तुतः अस्माकं भिन्नानाम् अङ्गानां किम् अलङ्कारभूतम् के गुणाः अलङ्कारभूताः इति वर्णयति ततः वैराग्यशतकादपरः श्लोकः आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्थं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः शेषं व्याधिवियोगदुःखसहितं सेवादिभिः नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनां सुखं कुत्र वा कथं वा लभ्यते इति कविः वदति अद्य आदौ शत्रुप्रत्ययानां शत्रुप्रत्ययान्तानां विषये इतोपि किञ्चित् जानीमः शत्रुप्रत्ययान्तः विशेषणं भवति इति ज्ञातवन्तः अतः विशेष्यस्य लिङ्गं वचनं विभक्तिम् अनुसृत्य विशेषणस्य शत्रुप्रत्ययान्तस्यापि लिङ्गं वचनं विभक्तिः भवति पठन् बालः लिखति पठन्तं बालं पश्य पठता बालेन कथ्यते पठते बालाय देहि पठतः बालात् स्वीकुरु पठतः बालस्य गृहं पठति बाले प्रीतिः अस्ति एवं विशेषणत्वेन प्रयोगः भवति अकारान्तः पुल्लिङ्गः पठत् शब्दः पठन् पठन्तौ पठन्तः हे पठन् हे पठन्तौ हे पठन्तः पठन्तं पठन्तौ पठतः पठता पठद्भ्यां पठद्भिः पठते पठद्भ्यां पठद्भ्यः पठतः पठद्भ्यां पठद्भ्यः पठतः पठतोः पठतां पठति पठतोः पठत्सु एतानि रूपाणि भवन्ति अद्य एतेषां वाक्यप्रयोगस्य इतोपि किञ्चित् अभ्यासं कुर्मः रुदन् शिशुः इत्यस्ति अस्य समुचितविभक्तिरूपम् उपयुज्य रिक्तस्थानं पूरणीयम् माता लालयति रिक्तस्थाने रुदन् शिशुः इत्यस्य उचितविभक्ति रूपं पूरणीयं भवति ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु
महालक्ष्मी माता रुदन्तं शिशुं लालयति
माता रुदन्तं शिशुं लालयति वस्तुतः एतादृशेषु सरलं कथं भवति पूर्णं युगपत् ज्ञातुं न शक्यते चेत् आदौ विशेष्यं द्रष्टव्यं। माता लालयति, कं लालयति, शिशुं लालयति। सो शिशुं लालयति, कीदृशं शिशुं? रुदन्तं शिशुं। माता रुदन्तं शिशुं लालयति। सो तत्तु ईजियर् वे आफ् गेटिङ्ग् देर्। युगपत् तस्य पदखण्डस्य विभक्तिरूपं यदि न ज्ञायते तर्हि आदौ विशेष्यं योजयित्वा अनन्तरं विशेषणं योजयितुं शक्यते। अग्रे डाश् गुडं देहि, समानं पदं रुदन् शिशुः, तस्य का विभक्तिः भवेत्? महेश्वरी,
अहं न जानामि।
गुडं देहि, कस्मै गुडः गुडः दीयते?
रुदन्
अल्ल, शिशुः, तस्य
शिशुः
शिशवे गुडं देहि,
शिशवे, अस्तु, चतुर्थी विभक्ति भवति अत्र, शिशवे गुडं देहि। रुदन् अहं न जानामि चतुर्थी विभक्ति किं भवति इति।
रुदन् रुदन्तौ रुदन्तः, रुदन्तं रुदन्तौ रुदतः, रुदता रुदद्भ्यां रुदद्भिः, रुदते
रुदते रुदते शिशवे गुडं देहि।
सम्यक्, रुदते शिशवे गुडं देहि। सो शिशवे देहि, कीदृशाय शिशवे? रुदते शिशवे गुडं देहि। सम्यक्, अग्रिमं माता कुत्र, तत्रापि पुनः योजनीयं।
I still didn't get the concept, but I'll try. अस्य माता कुत्र? शिशोः शिशोः माता कीदृशं शिशोः? What is the shashti vibhakti par rutatah rutatah
shishoho
mata kutra
rutatah shishoho mata kutra rutatah shishoho mata kutra so शिशोः माता, सो कीदृशस्य रुदतः? सो यु हेव् टु फस्ट् अण्डर्स्टाण्ड् द विभक्ति अण्ड् देन् यूस् द सेम् विभक्ति आन् द शत्रन्त। सो सिमिलर्ली धावन् अश्वः, सो धावन् अश्वः, सः प्रहृतः, सो हि वास् हिट् बै द रन्निङ्ग् हार्स्, सो सः प्रहृतः, केन प्रहृतः? सीता नारायण,
नमस्ते भगिनि, केन अश्वेन प्रहृतः?
सम्यक्,
धावति अश्वेन प्रहृतः, सः धावति अश्वेन प्रहृतः,
धावता अश्वेन प्रहृतः, सम्यक्, धावता अश्वेन प्रहृतः। उत्तमम्, नेक्स्ट्, योधः पतति, योधः पतति, कस्मात् पतति? अविनाश,
अश्वे पतति,
कस्मात् पतति? फ्रम्, हि फॉल्स फ्रम् द हॉर्स,
फ्रम्, पञ्चमी विभक्ति, अश्वात् पतति, धावतः धावतः अश्वात् पतति.
उत्तमं. धावतः अश्वात् पतति. अश्वात् पतति. धावतः अश्वात् पतति. सो उपविष्टा सा भीता. सो कुत्र उपविष्टा? सो सीटेड ऑन द रनिंग हॉर्स शी वाज स्केयर्ड. तो कुत्र उपविष्टा रामनाथ?
उपविष्टा सा भीता. भीता अस्ति चेत् तदपि
फ्रॉम. सो शी वाज सीटेड ऑन द हॉर्स.
अश्वे उपविष्टा सा भीता.
सम्यक्.
सो अश्वे सप्तमी अने अनहानि. धावति अश्वे उपविष्टा सा भीता.
उत्तमम्. सो अश्वे उपविष्टा. धावति अश्वे उपविष्टा सा भीता. सम्यक्. सो संस्कृतं जानन्तः जनाः. ये जनाः संस्कृतं जानन्ति ते. सो ते संस्कृताः भवन्ति. सो एतत् प्रथमा विभक्तिः एव, अतः अहमेव वदामि. सो जनाः संस्कृताः भवन्ति. कीदृशाः जनाः? संस्कृतं जानन्तः. संस्कृतं जानन्तः जनाः संस्कृताः भवन्ति. तैः संस्कृतिः रक्षणीया. रामानुजन्.
तैः संस्कृतिः रक्षणीया. संस्कृतं जानन्तः. सो संस्कृतं संस्कृतं जानते जनैः संस्कृतिः रक्षणीया.
सो जनैः. सो जनैः. सो जानता जानद्भ्याम्.
ओ राइट राइट. ओके. जानद्भिः. करेक्ट.
सम्यक्.
जानद्भिः जनैः. ओके.
संस्कृतं जानद्भिः जनैः. बै पीपल हु नो संस्कृत. संस्कृतं जानद्भिः जनैः संस्कृतिः रक्षणीया.
थैंक यू.
सो संख्या वर्धताम्. सो मे द नंबर इंक्रीज. सो केषां संख्या?
दिस् विल् बि षष्टि विभक्ति. सो जनाः षष्टि विभक्ति. जनानां जनानां. जानन्तः षष्टि विभक्ति. जानतां
जानतां.
संस्कृतं जानतां जनानां संख्या वर्धताम्.
वेरि गुड्. सो संस्कृतं जानतां जनानां संख्या वर्धताम्. सो मे द नंबर ऑफ पीपल हु नो संस्कृत इंक्रीज. सो संस्कृतं जानतां जनानां संख्या वर्धताम्. समान रीत्या पूजां कुर्वन्तः अर्चकाः. सो अर्चकाः पूजां कुर्वन्ति. ओके. तत्र पूर्वं रक्षणीया इत्यत्र कः अर्थः? मस्ट् बि प्रोटेक्टेड्. संस्कृतिः रक्षणीया. प्रथमा विभक्तिः. संस्कृति मस्ट् बि प्रोटेक्टेड् बै पीपल् हु नो संस्कृत. सो संस्कृतं जानद्भिः जनैः इति तृतीया. संस्कृतिः रक्षणीया इति प्रथमा. सो पूजां कुर्वन्तः जनाः. सो तैः मन्त्राः उच्यन्ते.
पूजां कुर्वद्भिः अर्चकैः मन्त्राः उच्यन्ते.
उत्तमम्. सो अर्चकैः मन्त्राः उच्यन्ते कीदृशैः? पूजां कुर्वद्भिः अर्चकैः मन्त्राः उच्यन्ते. सम्यक्. सो दक्षिणां देहि, तेभ्यः दक्षिणां देहि. निर्मला.
नमस्ते. पूजां कुर्वन्त रक्षकाः दक्षिणां देहि. सो इट् विल् बी अर्चकाभ्यः
अर्चकेभ्यः
अर्चकेभ्यः अर्चकेभ्यः एण्ड् इट् विल् बी पूजां कुर्वद्भ्यः कुर्वद्भ्यः अर्चकेभ्यः दक्षिणां देहि.
उत्तमम्. सो अर्चकेभ्यः दक्षिणां देहि, कीदृशेभ्यः? पूजां कुर्वद्भ्यः अर्चकेभ्यः दक्षिणां देहि. सो प्रसादं स्वीकरोमि तेभ्यः. सो ऐ विल् टेक् द प्रसाद फ्रम् देम्. सो प्रसादं स्वीकरोमि. शैलजा.
नमो नमः. पूजां कुर्वद्भ्यः अर्चकेभ्यः प्रसादं स्वीकरोमि.
सम्यक्. सो पञ्चमी अपि समानं भवति. सो पूजां कुर्वद्भ्यः अर्चकेभ्यः प्रसादं स्वीकरोमि. सो बहुवचने चतुर्थ्याः पञ्चम्याः रूपं समानं. सो काण्टेक्स्ट् डिपेण्डिङ्ग् आन् दट् काण्टेक्स्ट् वी हेव् टु नो का विभक्तिः इति. एतद् ज्ञात्वा दृष्ट्वा ज्ञायते, प्रसङ्गं दृष्ट्वा. सो देर् इस् अनदर् क्वश्चन् हियर्. सामान्यतः का विभक्तिः प्रयोक्तव्या इति कथं ज्ञायते इति, तत्र अभ्यासः किञ्चित् आवश्यकः. केषु केषु अर्थेषु का विभक्तिः भवति इति. अस्माकं पाठशालायां विभक्तिः इति एकः वर्गः अस्ति. सो देर् वास् वन् कोर्स् फार् विभक्ति which was meant for that to understand, at least that the, it doesn't cover all shabdas, but which vibhaktis, what are the major contexts in which we use the different vibhaktis. So if you're interested, you can go through that course. There are some 25 classes which cover the use of different vibhaktis. Okay. Abhyasena eva agacchati tatra chinta mastu. And this exercise vastutah shikshastarasya parikshayam etadrisha prashnan na prichanti. They'll usually give some clue already to the vibhakti. Okay. So dattva kevalam shatranta rupanam tasyam vibhaktau rupam vartavya lekhaniyam bhavati. But maya ayam abhyasah etadartham nirmitah. Katham dirghanam vakyanam nirmanam bhavati. तत्र क्लेशः नास्ति. अस्माकं किं भवति, दीर्घं वाक्यं पश्यामः तदा प्रथमतः भीतिः भवति तत्र किं किम् अस्ति इति. अतः सामान्यतः संस्कृतवाक्येषु विशेषणं विशेष्यम् इत्येव भवति. विशेष्यं ज्ञात्वा तदनुगुणं विशेषणस्य योजनम् अस्माभिः अभ्यसनीयम्. यतोहि एवमेव पूर्वं किमासीत्, पदद्वयमेव आसीत्. सो अश्वः इत्यस्ति. सो आदौ सः अश्वेन प्रहृतः, योधः अश्वात् पतति, अश्वे उपविष्ट. सो दीस् आर् द बेसिक् रिलेशन्. सामान्यतः विभक्ति हि का भवेत् इति ज्ञातव्यम्. सो अग्रिमस्तरं किम्? अग्रिमस्तरे तस्य एक विशेषणं योज्यते, ततः तस्यापि अग्रे. सो अत्र संस्कृतं जानन्तः जनाः, जनाः जानन्तः जनाः, किं जानन्तः? संस्कृतं जानन्तः. संस्कृतम् इत्येतत् कुत्रापि न परिवर्तते. ओके. सो संस्कृतं जानन्तः, संस्कृतं जानद्भिः, संस्कृतं जानताम्. सो एवं इट् इस् लैक् अ स्टेप् बै स्टेप् कन्स्ट्रक्षन् आफ् सेण्टेन्सेस्. देर् इस् नथिङ्ग् डिफिकल्ट्. द बेसिक् रिलेशन्स् आर् आल् द सेम्. सो वि शुड् the first practice is to get that basic relation right. okay, the basic phrase of the sentence, and then it is like filling it up with visheshana. That is what happens in ready-made sentences which we read in literature, the gadya or padya. So when we try creating sentences also, so we should, if we do it step by step, it is easier. So first get the basic phrase, what is the the basic karakas and their vibhakti, and then add on whatever visheshana is required. So that way we won't go wrong. So etad vakyam purnatah ekavaram eva lekhaniyam chet tasya doshah bhavitum arhati kintu yada evam tarashah gacchamah tada doshanam sankhya nyuna bhavati swayam lekhan. Kintu parikshayam etadrsha prashna na prichanti chintama. Idanim pullinganam pullinga shabdanam shatrantanam rupani jnatani. नपुंसकलिङ्गे कथं भवति शब्दस्य रूपम् इति पश्यामः. तत्र प्रथमा विभक्तौ द्वितीया विभक्तौ भेदः भवति, अन्यत् सर्वं समानम्. सो तृतीया विभक्तेः आरभ्य पुल्लिङ्गस्य नपुंसकस्य च भेदः न भवति, समानं भवति. केवलं प्रथमा विभक्तिः द्वितीया विभक्तिः तद्वयमपि समानम्. अतः पठत् पठती पठन्ति, हे पठत् हे पठती हे पठन्ति, पठत् पठती पठन्ति इति प्रथमा द्वितीया, तदुत्तरं तृतीया आरभ्य समानं. पठता पठद्भ्यां पठद्भिः, पठते पठद्भ्यां पठद्भ्यः, पठतः पठद्भ्यां पठद्भ्यः, पठतः पठतोः पठतां, पठति पठतोः पठत्सु. सो पठत् पठती पठन्ति. सो पठन्ति इत्येतत् अवगन्तव्यं. सो पठति पठतः पठन्ति इति तिङन्तरूपे अपि पठन्ति इत्यस्ति. अत्र तु विशेषणत्वेन शत्रन्ते अपि भवति. वाक्यं पश्यामः चेत् ज्ञायते तत्र किम् उपयुक्तम् इति. एण्ड् नपुंसकलिङ्गानां प्रयोगः विरलः एव, अतः क्लेशः नास्ति, किन्तु ज्ञातव्यम्. कानिचन उदाहरणानि पश्यामः यत्र नपुंसकलिङ्ग शब्दानां प्रयोगः अस्ति. मम मित्रं गृहम् आगच्छत् मार्गे अपतत्. सो मित्रं नपुंसकम्, अतः आगच्छत्. सो मै फ्रेण्ड् वेन् हि वास् कमिङ्ग् होम् fell. So mitram agachhat. Puratanam yanam uchchaihi shabdam kurvat chalati. So yanam, puratanam yanam uchchaihi shabdam kurvat. So yanam kurvat chalati. Spurat netram shubham अशुभं वा सूचयति. सो स्फुरत् नेत्रम्, नेत्रं स्फुरत्, थ्रोबिङ्ग् आफ् द ऐ इति वदन्ति. तत्तु शुभसूचकम् अथवा अशुभसूचकं भवति इति वदन्ति. अतः स्फुरत् नेत्रम्. एवमेव अन्यासु विभक्तिषु उत्पतत् विमानं दृष्ट्वा शिशुः हसति. सो विमानम् उत्पतत् विमानम् इति द्वितीया विभक्तिः. यथा पठन्तं बालं दृष्ट्वा शिशुः हसति. सो उत्पतत् विमानं दृष्ट्वा द्वितीया विभक्तौ अपि समानं रूपं. प्रसङ्गं दृष्ट्वा विभक्तिः ज्ञातव्या. सो वृक्षात् पतन्ति पर्णानि, वायुः दूरं नयति. सो वायुः दूरं नयति. किं दूरं नयति? पर्णानि. कीदृशानि पर्णानि? वृक्षात् पतन्ति. सो द विण्ड् टेक्स् अवे द लीव्स् विच् आर् फालिङ्ग् फ्रम् द ट्री. सो अत्र पतन्ति इति पर्णानि इत्यस्य विशेषणं. सो वृक्षात् पतन्ति पर्णानि, वायुः दूरं नयति. सो एतद्वयं द्वितीया विभक्तिः, अन्यत् प्रथमा विभक्तिः. सो विशेषणत्वेन प्रयोगः भवति. अत्र अभ्यासं कुर्मः शोभते अथवा शोभन्ते इति क्रियापदम्. एकम् उदाहरणं दर्शयामि. सुपुष्पं विकसति. कुत्र? सरसि. सरः इस् अ पाण्ड्. सो सरसि विकसत् पुष्पं शोभते. सो अ ब्लूमिङ्ग् फ्लावर् शैन्स् इन् द पाण्ड्. सो सरसि विकसत् पुष्पं शोभते. सो पुष्पं विकसति. तस्य शत्रन्तं नपुंसकलिङ्गे विकसत् पुष्पं. सो सरसि विकसत् पुष्पं शोभते. सो नक्षत्राणि स्फुरन्ति आकाशे. वक्तुमिच्छन्ति हस्तम् उन्नयन्तु. रामनाथ
सप्तमी विभक्ति.
विभक्ति इस् ओन्ली प्रथम.
अयोः स्फुरत् किन्तु नक्षत्राणि अस्ति किल.
बहुवचनं.
बहुवचनं. स्फुरत् स्फुरन्ति नक्षत्राणि आकाशे शोभते.
शोभन्ते.
शोभन्ते.
आकाशे स्फुरन्ति नक्षत्राणि शोभन्ते. सो ट्विङ्क्लिङ्ग् स्टार् अडोन् द स्कै. सो आकाशे स्फुरन्ति नक्षत्राणि शोभन्ते. पक्षिकुलं गायति. कुत्र? वने. निर्मला.
पक्षिकुलं गायति वने. पक्षिकुलं
गायत् पक्षिकुलं वने
वने शोभते.
वने गायत्
पक्षिकुलं शोभते.
सो द ग्रूप् आफ् बर्ड्स् विच् इस् सिङ्गिङ्ग्. सो वने गायत् पक्षिकुलं शोभते. सो अपत्यानि क्रीडन्ति. सो अपत्यानि चिल्ड्रन् इत्यर्थः नपुंसकलिङ्गे भवति. सीता
गृहे गृहे क्रीडन्ति. सेम् थिङ्ग्. क्रीडन्ति अपत्यानि शोभन्ते.
सम्यक्. सो गृहे क्रीडन्ति अपत्यानि. सो क्रीडत् क्रीडती क्रीडन्ति. सो क्रीडन्ति अपत्यानि गृहे शोभन्ते. सम्यक्. नेक्स्ट् वन् महालक्ष्मी.
नगरे पुष्प्यन्ति उद्यानानि शोभन्ते.
सो पुष्प्यन्ति उद्यानानि नगरे शोभन्ते. सो ब्लूमिङ्ग् गार्डन्स्. पुष्प्यन्ति उद्यानानि नगरे शोभन्ते. सो विकसत् पुष्पं. गायत् पक्षिकुलं. स्फुरन्ति नक्षत्राणि. क्रीडन्ति अपत्यानि. पुष्प्यन्ति उद्यानानि. सो नपुंसकलिङ्गे शत्रुप्रत्ययान्तानि रूपाणि. सो तेषां पुनः यथा पुल्लिङ्गे तथा अत्रापि छिन्नासु विभक्तिषु प्रयोगः भवति. सो गजः शुण्डया गृह्णाति. सो फलं पतति. तत् इत्युक्ते द्वितीया विभक्तिः. सो शुण्डया गृह्णाति गजः. सो द एलिफेण्ट् क्याचस् द फालिङ्ग् फ्रूट् in its trunk. So atra phalam patati tasya shatranta prayogah vaktavyah dvitiya vibhakti. Sudha.
Rajah patak phalam shundaya grihnati.
Samyak. Gajah patat phalam shundaya grinhati. So, mitram chirat agachati. Chirat after a long time ityarthah. Bahu kalat. Chirat agachati. So, tasmai swagatam. So, tasmai chaturthi vibhaktihi. Rajeshwari.
Tasmai mitram
mitram mitrasya chaturthi
mitraya chirat mitraya chirat agachati agachati agachanti.
No, tasya shatrantam. So, agachate.
Agachate. Okay.
Agachate mitraya swagatam. So, chirat agachate mitraya.
Mitraya
swagatam.
Swagatam.
So, welcome to the friend who is coming after a long time. So, agachate mitraya swagatam. So, shariram nashyati tasmat atma nirgataha. So, panchami of shariram nashyati, the body which is being destroyed.
Sharirat atma nirgataha. And nashyataha shariirat atma nirgataha.
Samyak. So, nashyataha shariirat atma nirgataha. So, sharirat nirgataha. Kidrishat nashyataha sharirat nirgataha. So, raja santushtaha. So, kasya sainyam jayati tasya raja santushtaha. So, sainyam jayati. So, the king of the winning army is happy. So, sainyam jayati ityasya shashti. Adinash.
Jayataha sainyasya raja santushtaha.
Samyak. So, jayataha sainyasya. Sainyasya raja. Kidrishasya jayataha.
Jayataha.
Jayataha sainyasya raja santushtaha. So, griham vinashyati tasmin katham vasamaha. So, how do we live in the house which is being destroyed. So, Veerabhadra Rao.
Yeah. Gruhe karam vasamaha.
Oh.
And then vinashyati. Vinashye gruham katham vasamaha.
Vinashyati gruhe katham vasamaha. So, vinashyati grihe. Saptami api vinashyati. Itseva bhavati. So, vinashyati grihe. In the house which is being destroyed, katham vasamaha. So, pushpani vikasanti tebhyaha from them sugandhaha nirgachati. So, fragrance is emitted. Shailaja.
Vikasatah pushpebhyah sugandhah nirgachati.
Vikasatah bahuvachanam.
Oh, vikasatbhyah. Vikasatbhyah pushpebhyah.
Vikasatbhyah pushpebhyah sugandhah nirgachati. So, vikasatbhyah pushpebhyah sugandhah nirgachati. Evam napumsakalinge rupani samanyataha tritiya vibhakte rarabhya pullingavadeva bhavanti prathama vibhaktau dvitiya vibhaktau eva bhedaha. So yatha pullingasya tatha asyapi भिन्नासु विभक्तिषु प्रयोगः भवति. तत्र अभ्यासेनैव ज्ञातुं शक्यते. सो अभ्यासाः दीयन्ते, कृपया तेषां उत्तराणि विलिख्य अभ्यासं कुर्वन्ति चेत् सरलं भवति. इट् इस् जस्ट् इस् ओन्ली वन् की पायिण्ट्. वाट् एवर् इस् द विशेष्य यु हव् टु पुट् द शत्रन्त इन् द सेम् लिङ्ग, सेम् वचन, सेम् विभक्ति. अन्यत् किमपि नास्ति. शत्रन्तस्य रूपं ज्ञातव्यम् इति प्रथमं, तत्र किं रूपम् उपयोक्तव्यम् इति द्वितीयं. सो रूपं ज्ञातव्यं, तत्र लिङ्गत्रयेपि तानि रूपाणि कण्ठस्थीकरणीयानि. तत्र का विभक्तिः, किं लिङ्गं, किं वचनं. सो यु हव् टु सेलेक्ट् द करेक्ट् फार्म् टु यूस्. सो तत्तु विशेष्यं दृष्ट्वा एव भवति. सो विशेष्यस्य किं लिङ्गं, का विभक्तिः, किं वचनं. सो पायिण्ट् बै पायिण्ट् यदि चिन्तां कुर्मः, यथा मित्राय इत्यस्ति. सो मित्रं नपुंसकलिङ्गं, चतुर्थी विभक्तिः एकवचनं. सो एतद् दृष्ट्वा वयं विशेषणस्य चयनं कुर्मः चेत् दोषः न भवति. अग्रिमवर्गे शत्रुप्रत्ययान्तानां स्त्रीलिङ्गरूपाणि जानीमः. स्त्रीलिङ्गे कथं रूपाणि भवन्ति, तेषां कथं प्रयोगः इति जानीमः. प्रश्नाः सन्ति चेत् प्रष्टुमर्हन्ति. इतोपि कति वर्गाः भविष्यन्ति इति प्रश्नः. स्त्रीलिङ्गरूपाणां प्रायः एकस्मिन् वर्गे समापयितुं शक्नुमः. एण्ड् देन् वी हाव् द सप्तमी, सत्सप्तमी. सो टु आर् मेक्सिमम् प्रोबब्लि त्री मोर् क्लासस्. इतोपि प्रायः वर्गत्रये समापयितुं शक्नुमः. सो शत्रुप्रत्ययान्तस्य स्त्रीलिङ्गरूपाणि ज्ञातव्यानि. ओ शानच् अपि अस्ति, सोरि. सो वी हाव् शानच्, आत्मनेपदिभ्यः धातुभ्यः शानच् भवति. शानच् प्रत्ययः सुलभः बिकास् इट् बिकम्स् अकारान्त. ओके, सो इट्स् अकारान्त. सो शानच् एण्ड् देन् सत्सप्तमी. सो three or four maximum classes. Okay. So anyatra we are almost done with the subhashitani prayena drishtani. Anyatra kimapi nasti. It's only these which are remaining. Okay. अग्रे गच्छामः. एनी क्वश्चन्स् आन् शत्र? अद्य शिशुपालवधम्, शिशुपालवधस्य काव्यकथा. सो चतुरः भागान् दृष्टवन्तः. प्रथमभागे नारदस्य आगमनं. नारदः इन्द्रस्य सन्देशं गृह्णन् द्वारकाम् आगच्छति. शिशुपालस्य वधः, दुष्टस्य शिशुपालस्य वधः कर्तव्यः इति कृष्णं कथयति. तस्मिन् समये एव युधिष्ठिरः अपि दूतं प्रेषयति. राजसूययज्ञः क्रियते, तत्र तस्य रक्षणार्थम् इन्द्रप्रस्थमागच्छतु इति कृष्णम् आह्वयति. ततः कृष्णः मन्त्रालोचनं करोति. कार्यद्वये सम्प्राप्ते किं करणीयम् इति उद्धव बलरामाभ्यां सह मन्त्रालोचनं करोति श्रीकृष्णः. ततः इन्द्रप्रस्थप्रयाणम्. उद्धवः, बलरामः कथयति शिशुपालः हन्तव्यः इति. किन्तु उद्धवः वदति, यदि राजसूयं गच्छामः तर्हि कार्यद्वयमपि सिद्ध्यति, अतः तत्रैव गच्छामः इति कृष्णः अपि अङ्गीकरोति. तेषां प्रयाणस्य वर्णनं दृष्टम्. श्रीकृष्णः सपरिवारः सर्वैः सहितः द्वारकां प्रति द्वारकायाः इन्द्रप्रस्थं प्रति प्रतिष्ठते. तेषां प्रयाणस्य वर्णनं सम्यक् कृतमस्ति. काव्ये तु अत्यन्तं दीर्घं वर्णनं विद्यते. अन्तिमः भागः काव्यकथायाः शिशुपालस्य वधः. अस्मिन् भागे शिशुपालस्य वधः कथं भवति इति पश्यामः. ये पठितुमिच्छन्ति हस्तम् उन्नयन्ति.
श्रीकृष्णः, युधिष्ठिरः, अन्ये सर्वेपि सभाभवनम् आगतवन्तः. कुशलप्रस्थानम् अनन्तरं राजसूययागः समारब्धः. वैभवपूर्णो यागविधिः समाप्तो भवत्. यागस्यान्ते सदस्यपूजा इति विधिरस्ति.
किं जातं? सर्वेपि सभाभवनम् आगतवन्तः. युधिष्ठिरः कृष्णस्य स्वागतार्थम् आगतः. सर्वे मिलित्वा यत्र यागः प्रचलति तत्र आगच्छन्ति. कुशलप्रश्नः, परस्परं कुशलप्रश्नः भवति. तदनन्तरं राजसूययागः समारब्धः. वैभवपूर्णः यागविधिः, अत्यन्तं वैभवेन यागः सम्पन्नः समाप्तः अभवत्. सो यागस्य अन्ते सदस्यपूजा इति विधिरस्ति. सो ये यागं प्रति आगतवन्तः तेषु श्रेष्ठस्य कस्यचित् पूजा कर्तव्या इति नियमः अस्ति, विधिः. समारब्धः, आरब्धः इत्येव अर्थः. सम्यक् आरब्धः, सम् इति उपसर्गः, आरब्धः इत्येव अर्थः समारब्धः इत्यस्यापि. यागस्य अन्ते सदस्यपूजा इति विधिः अस्ति. रामनाथ,
तां पूजां स्वीकर्तुं कोर अर्हः, कः समर्थः इति धर्मराजो भीष्मं पितामहम् अपृच्छत्. तदा भीष्मः श्रीकृष्णः एव सर्वोत्तमः पूजारः इत्यकथयत्. भीष्मः श्रीकृष्णस्य प्रभावं, पराक्रमम्, अवतारान् च अवर्णयत्.
तां पूजां स्वीकर्तुं, सदस्यपूजा क्रियते, तत्र कः अर्हः, अर्हः डिसर्विङ्ग्, कः समर्थः, यस्य कस्यापि पूजा न क्रियते, यः अत्यन्तं समर्थः श्रेष्ठः तस्य एव. अतः कः समर्थः विसर्गस्य सकारः, कः अर्हः विसर्गस्य उत्तमं पूर्वरूपम् इति धर्मराजः भीष्मं पितामहम् अपृच्छत्. तदा भीष्मः श्रीकृष्णः एव सर्वोत्तमः, सर्वेषाम् उत्तमः सर्वोत्तमः श्रीकृष्णः एव पूजार्हः इति अकथयत्. भीष्मः श्रीकृष्णस्य प्रभावं, पराक्रमम्, अवतारान् च अवर्णयत्. सो कृष्णस्य बलं कियदस्ति, तस्य प्रभावः, महिमा कीदृशः, तस्य के अवताराः इति भीष्मः वर्णयति. अर्हः डिसर्विङ्ग् इत्यर्थः पात्रम्. सो ही हू डिसर्व्स् दट् पूजा. सो पूजार्हः इति पूजायाः अर्हः, इट्स् अ नामपदं, क्रियापदं नास्ति. पूजार्हः, पूजायाः अर्हः पूजार्हः. ही हू डिसर्व्स् द पूजा. सीता,
सभायां कृतां श्रीकृष्णस्य पूजां चेति राजः शिशुपालो न सहत। सः श्रीकृष्णस्य शत्रुः। शिशुपालः कोपेन धर्मराजं भीष्मं च गर्हितुम् आरब्धवान्। नीचस्य गोपस्य चोरस्य कृष्णस्य पूजा किमर्थम्? अयोग्यस्य इयं पूजा भवति। अयं भीष्मो वृथापलितः मूर्खः इति निन्दितः
इति अनिन्दत्। एवं श्रीकृष्णस्य पूजा क्रियते, किन्तु सभायां कृतां पूजां कस्य? श्रीकृष्णस्य पूजां चेदिराजः शिशुपालः न असहत। सहते आत्मनेपदी, असहत न असहत, ही कुड् नाट् टालरेट्। चेदिराजः शिशुपालः न असहत, किमर्थं? सः श्रीकृष्णस्य शत्रुः। शिशुपालः कोपेन धर्मराजं भीष्मं च गर्हितुं, गर्हा निन्दा, निन्दितुं, तर्जयितुम् आरब्धवान्। नीचस्य गोपस्य चोरस्य कृष्णस्य पूजा किमर्थम्? कृष्णस्य प्रभावं पराक्रमं भीष्मः वर्णितवान्, किन्तु शिशुपालः कथयति कृष्णः नीचः, गाः पालयति, गोपालः सः तु राजा एव न, केवलं गोपालः, तत्रापि चोरः, बहुधा चौर्यादिकं कृतवान्। तादृशस्य कृष्णस्य पूजा किमर्थं क्रियते? अयोग्यस्य इयं पूजा भवति। यदि कृष्णस्य पूजा तर्हि अयोग्यस्य, योग्यः अर्हः समानः अर्थः, सुकृष्णः न योग्यः न अर्हः, तादृशस्य पूजा भवति। अयं भीष्मः वृथा पलितः मूर्खः, मूर्खः ज्ञायते, पलितः, पलित इस् वैट् हेर्, द हेर् विच् हस् टर्न्ड् वैट् ड्यू टु ओल्ड् एज्, वार्धक्ये केशाः श्वेताः भवन्ति, तस्य पलितम् इति उच्यते। अङ्गं गलितं, पलितं मुण्डं, दशनविहीनं जातं तुण्डं, भजगोविन्दं तस्मिन् स्तोत्रे अस्ति। पलितं मुण्डं, मुण्डं नाम शिरः पलितं, केशाः श्वेताः इत्युक्ते बहु वयः अभवत्, बहु ज्येष्ठः, किन्तु वृथा पलितः, केवलं तस्य केशाः एव श्वेताः, तस्य तु बुद्धिः न जाता इति शिशुपालस्य कथनस्य अर्थः। अयं भीष्मः वृथा पलितः मूर्खः इति अनिन्दत्। शिशुपालः युधिष्ठिरं तर्जयति, कृष्णं निन्दति, भीष्ममपि निन्दति। गोपः गोपालः उभयं समानं, गाः पाति रक्षति इति गोपः गोपालः, गोपालकः सर्वमपि समानार्थकम्। वीरभद्रराम
वादविवादः प्रवृत्तः, तदा पुनरपि भीष्मः कृष्णस्य स्तोत्रं कृतवान्। अनेन शिशुपालः कोपेन उन्मत्तः अभवत्। सः सभां परित्यज्य बहिर्गतः। शिशुपालपक्षीयाः नृपाः अपि बहिर्गताः।
वादविवादः प्रवृत्तः तत्र शिशुपालस्य अन्येषां, तदा पुनः अपि भीष्मः कृष्णस्य स्तोत्रं कृतवान्। कृष्णः कीदृशः इति भीष्मः पुनरपि बहुधा वर्णयति। अनेन शिशुपालः कोपेन उन्मत्तः, मैड् वित् रेज् इति यत् कथ्यते समानं, कोपेन उन्मत्तः अभवत्। सः सभां परित्यज्य बहिर्गतः। शिशुपालपक्षीयाः नृपाः, अन्ये राजानः ये शिशुपालस्य पक्षे आसन् ते अपि बहिर्गताः। शिशुपालपक्षीयाः
नृपाः अपि बहिर्गताः. स्तोत्रं स्तुतिः प्रेस् इत्यर्थः. कृष्णस्य स्तोत्रं कृतवान्, स्तुतिं कृतवान्, कृष्णं प्रशंसितवान् इत्यर्थः. अनेन एतेन इदं शब्दः अयम् इमौ इमे इमम् इमौ इमान् अनेन आभ्याम् एभिः. अनेन इत्युक्ते एतेन, केन? कृष्णस्य स्तोत्रेण. सो बै दिस् इत्यर्थः. निर्मला
ततः शिशुपालः कृष्णेन सह युद्धं कर्तुं निश्चितवान्. तस्य सैनिकाः परिवारजनाश्च आगामि दुःखं परिकल्प्य दुःखिताः. मध्ये शिशुपालः दूतं धर्मराजस्य सविधे प्रेषितवान्. दूतः सभाम् आगत्य कृष्णाय उपदेशं कृतवान्. शिशुपालः शूरः, सः युद्धसन्नहं करोति. त्वं तं शरणं गच्छ इति.
ततः शिशुपालः कृष्णेन सह युद्धं कर्तुं निश्चितवान्. सो तत्रैव युद्धं भवतु इति शिशुपालः चिन्तयति. तस्य शिशुपालस्य सैनिकाः परिवारजनाश्च आगामि दुःखं परिकल्प्य दुःखिताः. तेषां सर्वेषां भयं यदि कृष्णेन सह तदपि राजसूययज्ञः यत्र बहवः अन्येपि राजानः सन्ति तत्र युद्धं क्रियते चेत् आगामि दुःखम् आगामि द कमिङ्ग् आर् इम्पेण्डिङ्ग् दुःखं परिकल्प्य So imagining what could happen, ते सर्वेपि दुःखिताः. मध्ये शिशुपालः दूतं धर्मराजस्य सविधे समीपे इत्यर्थः. टु द प्रेसेन्स् आफ् धर्मराज. सो धर्मराजस्य सविधे प्रेषितवान्. दूतः सभाम् आगत्य कृष्णाय उपदेशं कृतवान्. सः आगत्य साक्षात् कृष्णं वदति. किं वदति? शिशुपालः शूरः, सः युद्धसन्नहं करोति. सन्नहः सिद्धता, युद्धस्य सज्जता इत्यर्थः. सो युद्धार्थं सिद्धतां करोति. त्वं तं शिशुपालं शरणं गच्छ इति कृष्णम् उपदिशति सः दूतः. अविनाश
इदं श्रुत्वा सात्यकिः कुपितः. स उचित उत्तरं दत्तवान्. पुनरपि दूतः शिशुपालं प्रशंसनम्. श्रीकृष्णः शिशुकृष्णं निन्दन् वचनान् उक्तवान् वचनान् वचनानि उक्तवान्. इदं श्रुत्वा सर्वे नृपाः कुपिताः. दूतः प्रतिनिवृत्तः. उभयपक्षीया युद्धाय स्थितवन्तः.
इदं श्रुत्वा, इदं दूतस्य वचनानि श्रुत्वा सात्यकिः कुपितः. सात्यकिः कृष्णस्य मित्रं, तस्य सः अपि यदुवंशस्यैव. सो तस्य अत्यन्तं कोपः आगतः. सः उचितम् उत्तरं दत्तवान्. सो दूतस्य कृष्णेन किमपि वक्तव्यं नास्ति. सः सात्यकिः एव शिशुपालं सम्यक् निन्दितवान्. पुनरपि दूतः शिशुपालं प्रशंसन् श्रीकृष्णं निन्दन् शत्रुप्रत्ययान्तस्य प्रयोगः सो शिशुपालं प्रशंसन् प्रेजिङ्ग् शिशुपाल श्रीकृष्णं निन्दन् वचनानि उक्तवान् इदं श्रुत्वा सर्वे नृपाः कुपिताः तदा तत्र श्रीकृष्णस्य पक्षे ये पाण्डवाः अन्ये राजानः आसन् ते सर्वेपि कुपिताः दूतः प्रतिनिवृत्तः सो दूतः प्रतिगतवान् उभयपक्षीयाः सो शिशुपालस्य पक्षे ये आसन् कृष्णस्य पक्षे ये आसन् सो उभयोः पक्षयोः जनाः युद्धाय स्थितवन्तः सो युद्धं कर्तुं निश्चित्य ते स्थिताः अग्रे स्वामिनाथन्
घोरं समारब्धम् अन्ते श्रीकृष्णस्य शिशुपालस्य च द्वन्द्वयुद्धं जातम् तदा श्रीकृष्णचक्रायुधेन शिशुपालं प्राहरत् तेन आघातेन शिशुपालो मृतः सज्जनानां सुखञ्जातम्
तो युद्धं घोरं समारब्धं घोरं युद्धं टेरिफाइंग वार आरब्धं अन्ते श्रीकृष्णस्य शिशुपालस्य च द्वन्द्वयुद्धं जातं सो अन्ते किं भवति द्वन्द्वयुद्धम् इत्युक्ते द्वयोरेव सैन्यस्य युद्धं परस्परं भवति सो द्वयोः परस्परं युद्धं तत् द्वन्द्वयुद्धम् आरब्धं तदा श्रीकृष्णः चक्रायुधेन शिशुपालं प्राहरत् कृष्णः सुदर्शनचक्रस्य प्रयोगं करोति प्राहरत् प्रहृतवान् इत्यर्थः तेन आघातेन सो चक्रस्य आघातेन बै द ब्लो आफ् द चक्र शिशुपालः मृतः सज्जनानां सुखं जातं सो दुष्टस्य शिशुपालस्य मरणेन सज्जनानां सर्वेषामपि सुखम् अभूत् इति शिशुपालस्य शिशुपालवधस्य कथा समाप्यते वस्तुतः काव्ये प्रायः 21 सर्गाः सन्ति सो महाकाव्यम् अतः सम्यक् सर्वेषामपि वर्णनं करोति माघः तत्र केचन प्रश्नाः सन्ति यागस्य अन्ते कः विधिः अस्ति शैलजा
यागस्य अन्ते सदस्यपूजा इति विधिः अस्ति
सम्यक् यागस्य अन्ते सदस्यपूजा इति विधिः अस्ति भीष्मः कं पूजार्हम् अवदत्
भीष्मः श्रीकृष्णं पूजार्हम् अवदत्
भीष्मः श्रीकृष्णं पूजार्हम् अवदत् शिशुपालः किं न असहत महालक्ष्मी
शिशुपालः सभायां कृतां श्रीकृष्णस्य पूजां
श्रीकृष्णस्य पूजां न असहत सम्यक् शिशुपालदृष्ट्या कृष्णः कीदृशः
सः चोरः गोपालः चोरः
नीचः
नीचः
शिशुपालदृष्ट्या कृष्णः नीचः गोपः चोरः अयोग्यः पूजायाः न योग्यः स्वामिनाथन् शिशुपालस्य दूतः कृष्णं किम् उपदिदेश?
शिशुपालस्य दूतः कृष्णं शिशुपालं शरणं गच्छ.
शिशुपालः शूरः तं शरणं गच्छ इति उपदिदेश. सम्यक्, उत्तमम्. सो अनेन शिशुपालवधस्य काव्यकथा समाप्ता. अद्य शत्रिशानच् वाक्येषु भिन्नविभक्तिषु कथं प्रयोगः इति ज्ञातवन्तः. नपुंसकलिङ्गे शत्रन्तरूपाणि कथं भवन्ति, तेषां कीदृशः प्रयोगः इति ज्ञातवन्तः. काव्यकथायां शिशुपालस्य वधे शिशुपालस्य वधः तादृशः अन्तिमः भागः दृष्टः. सो इस् दिस् द ओरिजिनल् टेक्स्ट् फ्रम् द माघाज् एपिक्? नो नो नो, नाट् एट् आल्. एतत्तु केवलं कथायाः सरलसंस्कृतेन संक्षेपः एव. सो माघस्य कोऽपि प्रयोगः अत्र नास्ति. माघकाव्यम् इट्स् अ वेरि ब्यूटिफुल् काव्य, पद्यकाव्यं तत्. सो तस्य कथायाः सङ्ग्रहरूपः एव, मूलं काव्यम् इदं न. सो देर् इस् नथिङ्ग् फ्रम् द ओरिजिनल् काव्य हियर्. इट्स् ओन्लि अ कन्सैस् डिस्क्रिप्शन् आफ् द स्टोरि, काव्यकथा इत्येव, न तु मूलं काव्यम्. अग्रिमशनिवासरे अग्रिमवर्गः. प्रश्नाः सन्ति चेत् पृच्छन्तु. अत्र एकः प्रश्नः पृष्टः अस्ति, तत्र क्तप्रत्ययान्तस्य प्रयोगः क्रियते. यथा फलं पतितम् अथवा सात्यकिः कुपितः, तो आत्मा निर्गतः इति, तत्र क्तवत्वन्तस्य प्रयोगः भवेत् किल इति प्रश्नः. आत्मा शरीरात् निर्गतवान्, सो फलं पतितवत् अथवा बालः पतितः इति वदामः, बालः पतितवान्, सात्यकिः कुपितवान् इत्यादि क्तवत्वन्तस्य प्रयोगः भवेत् किल इति प्रश्नः. तत्र क्तप्रत्ययः द्विविधः भवति. सो सामान्यतः वयं यज्जानीमः कर्मार्थे क्तप्रत्ययः इति वदामः, यथा मया फलं भुक्तं, बालेन पाठः पठितः इत्यादि कर्मार्थे क्तप्रत्ययः सर्वेभ्यः धातुभ्यः भवति. किन्तु कर्त्रर्थे अपि क्तप्रत्ययः अस्ति, यथा सः गतवान्, सः गतः, रामः वनं गतः, सो आत्मा निर्गतः इत्यादि कर्त्रर्थे अपि क्तप्रत्ययस्य प्रयोगः अस्ति. एतत्तु सर्वेभ्यः धातुभ्यः न भवति. सो मुख्यतः गत्यर्थकधातूनां, ये धातवः गतिं बोधयन्ति, सो गच्छति, आगच्छति, निर्गच्छति, याति इत्यादीनाम्. अत एव आगतः, मम पतिः आगतः इति गत्यर्थकधातूनां, तथा अकर्मकधातूनां प्रयोगे अपि भवति कर्त्रर्थे क्तप्रत्ययस्य प्रयोगः. यथा कुपितः इति कुपधातुः अकर्मकः धातुः, सो तेषामपि कर्त्रर्थे क्तप्रत्ययः प्रयुज्यते. सो तत्र क्तवतु प्रत्ययस्य प्रयोगः अपि शुद्धः, सः गतवान्, सः गतः, उभयोः अर्थः समानं भवति. सो कर्त्रर्थे यदा प्रयोगः अस्ति, तदा क्तक्तवतु उभयोः प्रयोगे अर्थः समानः, किन्तु लघु भवति इत्यतः क्तप्रत्ययान्तस्य प्रयोगः अधिकतया क्रियते. तावदेव, उभयं कर्तुं शक्यते. अन्ये केऽपि प्रश्नाः सन्ति वा? यदि प्रश्नाः सन्ति तर्हि हस्तमुन्नयन्तु.
रामानुजन्, yesterday's class, the one that Subhashitani that we read, the words that came across like pranayita, bhalatva, vriddhatva, sanchalatara, are they all taddhita pratyayas?
Yes. So all of them are taddhita pratyayas. So taddhitas are a very wide variety of pratyayas used in different senses. Okay. So the balatva, vriddhatva, pranayita, etc. are all called the bhavarthaka. So they are referring to the quality of something. Say mridutva, etc. This one. And the taratva.
Okay.
In the comparative and superlative. So, sundaraha, sundarataraha, sundaratamaha. So, more beautiful and most beautiful.
Oh, okay.
So, chaturaha, chaturataraha, chaturatamaha. So, here again, chanchala tara. That is more chanchala than what vari taranga. So, tarap is the comparative pratyaya.
Okay, okay. धन्यवादः
अन्ये केऽपि प्रश्नाः सन्ति वा शैलजा
फॉर परस्मैपदी वी यूज शत्रु प्रत्यय वी हैव द रूल लाइक दैट ना दैट वी लर्नड सो देयर इज वन स्तोत्रम कॉल्ड द कौपीन पंचकम So it says Vedanta Vakyeshu Sada Ramantaha. So Ramate,
Ramamanaha, yeah, that is a Rasha Prayogaha. Ramadhato Etadeva Bhavet. It should be Atmanepadi. So Ramamanaha Itteva Rupam. Ramamana Manetrayaha Iti Valmiki Ramayane Asti. रममाणः इत्येव भवति यदा उपसर्गः अस्ति तदा परस्मैपदित्वं भवति यथा विरमति इत्यादिषु बट् रमन्तः इस् एन् आर्षप्रयोग
फार् रैमिङ्ग् दे केन् यूस् इट् लैक् देट्
ऐ मीन् दे केनाट् किन्तु ऋषिभिः कृतम् इत्यतः वस्तुतः दोषः एव रमन्तः इति न भवति
ओके धन्यवादः
Ramnath.
Yeah, namaste. So, same question. Sorry, I think I did not quite follow that part. If you take the sentence, Tada ekaha pushpaharaha upari patitaha. So, Can you use it?
There is a Paninian Sutra which says Gatyartha Akarmaka and those are the two major categories. For the others, there is a list of a few dhatus, Shlisha, Ityadi. But the major this thing is that the Gatyarthaka dhatus, dhatus which mean movement or going, and Akarmaka dhatus. For those, you can use Kthapratyaya in Kartrartha also.
Okay.
So there is a Paninian Sutra which lists those dhatu. So, Gatyartha, Akarmaka, Shlisha, Shing, etc. So, there are a few specific dhatus and then dhatus which belonging to these two categories.
Okay. Okay. So, here in this case, Patitaha is Gati...
Gatyarthaka. Yeah.
Okay.
The dhatu itself is Patla Gatau. So... you can have it saha snataha saha whatever so other akarmaka dhatu saha sthitaha so te sarve sthitaha sthitavantaha ityarthaha but we say sthitaha So that is akarmaka. Sadhatu is akarmaka. So.
Okay. Astu. Many other.
Any other question? We'll stop here. Guru Reva Gatir Guru Meva Bhaje Guru Naiva Sahasmi Namo Gurave Na Guru Paramam Shishurasmi Guru Matirasti Guru Mamapahi Guru.